सारं सर्वतः आदद्यात् अप्युन्मत्तात् प्रलपतो बालच्च परिजल्पतः सर्वतः सारमादद्यादश्मभ्य इव काञ्चनं मितभोजनं गुणाश्च षण्मितभुक्तं भजन्ते आरोग्यमायुश्च बलं सुखञ्च अनाविलं चास्य भवत्यपत्यन्न चैनमाद्यून इति क्षिपन्ति क्षमया साध्यते सर्वं क्षमा वशीकृतिर्लोके क्षमया किन्न साध्यते शान्तिखड्गकरे यस्य किं करिष्यति दुर्जनः दानी दरिद्रः द्वाविमौ पुरुषौ राजन् स्वर्गस्योपरि तिष्ठतः प्रभुश्च क्षमया युक्तो दरिद्रश्च प्रधानवान् किमाद्यं यच्छक्यं ग्रसितुं ग्रस्यं ग्रस्तं परिणमेच्छयत् हितञ्च परिणामे स्यात् तदाद्यं भूतिमिच्छत चञ्चलानि इन्द्रियाणि चलानि हिमानि षडिन्द्रियाणि तेषां यद्यद्वर्धते यत्र यत्र ततस्ततस्रवते बुद्धिरस्य छिद्रोदकुम्भादिव नित्यमम्भः कीर्तिमान् महीयते यावत् कीर्तिर्मनुष्यस्य पुण्यालोके प्रगीयते तावत् स पुरुषव्याघ्र सर्वलोके महीयते गुणहीनाः त्याज्याः संवृद्धाः गुणतः केचिद्भवन्ति धनतोपरे धनवृद्धान् गुणैर्हीनान् धृतराष्ट्रविवर्जय धनता अरोगता च न मनुष्ये गुणः कश्चिद् राजन् सधनतामृते अनातुरत्वाद्भद्रन्ति मृतकल्पा हि रोगिणः नापक्वं फलं प्रचेतव्यम् वनस्पतेरपक्वानि फलानि प्रचिनोति यः सनाप्नोति रसं तेभ्यो बीजं चास्य विनश्यति